सर्वेषां संस्कृतकक्षायां स्वागतम्. अधुना अहम् एकं सुभाषितं श्रावयामि. मातेव रक्षति पितेव हिते नियुङ्क्ते कान्तेव चापि रमयत्यपनीयखेदं लक्ष्मीं तनोति वितनोति च दिक्षु कीर्तिं किं किं न साधयति कल्पलतैव विद्या. इत्युक्ते कल्पलता इव विद्या किं किं न साधयति. इत्युक्ते विद्या कल्पवृक्षः इव सर्वं साधयति. इत्युक्ते विद्यया लोके सर्वं साधयितुं शक्यम् इति एतस्य सुभाषितस्य अर्थः. अनन्तरं गते सप्ताहे वयं भवान् कः भवती का इति प्रश्नद्वयं ज्ञातवन्तः. भवान् कः भवती का इत्युक्ते भवती किं करोति भवान् किं करोति इति तस्य अर्थः. तस्य विषये अहम् अत्र किञ्चित् वक्तुम् इच्छामि. भवन्तः सर्वे कैङ्कर्यम् इति पदं जानन्ति वा? जानन्ति चेत् वदन्तु.
जानामि.
उत्तमम् उत्तमं. कैङ्कर्यम् इति पदं तस्य विषये अहं किञ्चित् वक्तुम् इच्छामि. किमर्थं चेत् अत्र भवन्तः जानन्ति एव भवती किं करोति इत्युक्ते भवान् कः, तेषाम् अर्थः समानः एव. अत्र अहं किं वदामि चेत् पूर्वतनकाले राजानः सन्ति, राज्ञः पार्श्वे इत्युक्ते राज्ञः समीपे सेवकाः सन्ति. सेवकाः सर्वदा ते किं वदन्ति अथवा किं पृच्छन्ति? प्रभो किं करोमि, प्रभो किं करोमि इति पृच्छन्ति. कः पृच्छति? सेवकः पृच्छति. कं पृच्छति? राजानं पृच्छति. तथा यः सर्वदा किं करोमि किं करोमि इति पृष्ट्वा सेवां करोति सः एव किङ्करः. तथा एव तत्पदं लोके आगतं. किङ्करस्य भावं कैङ्कर्यम् इति वदामः. तथा एव वयं जानीमः यमराजः, यमराजस्य पार्श्वे अपि सेवकाः सन्ति, यमराज्ञः सेवकाः. ते सदा किं वदन्ति? प्रभो भवतः कृते किं कर्तुं शक्नोमि किं करोमि इति वदति. अतः एव तेषां नाम अस्ति यमकिङ्कराः. तथा एव वयं सर्वे देवालयं गत्वा तत्र किञ्चित् स्वामिनः सेवां कुर्मः. इत्युक्ते देवालये तत्र वयं सर्वे पूजां कुर्मः, अनन्तरं तत्र देवस्य सेवां कुर्मः. सा सेवा एव कैङ्कर्यम् इति वदामः. किङ्करस्य भावं कैङ्कर्यम्. यः सर्वदा किं करोमि किं करोमि इति वदति सः एव किङ्करः. इदानीन्तनकाले नौवेडेस् वी आर् आल्सो किङ्करास्, परन्तु वयं सर्वे अपि किङ्कराः. परन्तु वयं कार्यालये किङ्कराः भवामः. परन्तु इत्युक्ते बास् महोदयस्य किङ्कराः, न तु परमात्मनः किङ्कराः. इत्युक्ते अत्र वयं सर्वे अपि किङ्कराः एव, परन्तु वयं बास् महोदयस्य कृते कार्यं कुर्मः. तदेव तथा एव अत्र भवान् कः भवती का इत्युक्ते भवान् किं करोति भवती किं करोति इति अर्थः. अनन्तरम् अत्र अधुना वयं गृहपाठविषये किञ्चित् चिन्तयामः. गते सप्ताहे वयं गृहपाठः किम् आसीत्, कः वदति किम् आसीत्? What was the homework last week? Kaha vadati?
भगिनी, दि होम्वर्क् वास् पेज् नम्बर् 11, एक्ससैज् नम्बर् 1.9 एण्ड् 1.9 आ 1.9 आ एण्ड् 1.9 आ.
उत्तमं. भवान् कृतवान् वा गृहपाठं कृतवान् वा?
Did you you want me to read?
Did you do the homework?
Yeah, I did the homework, yes.
Karatu mahodaya.
So the first exercise is, you want me to read the heading also, the instruction?
Instruction.
Avarane vidyamanasya padasya uchitam rupam rikte stale likatu.
Atra आवरणे, आवरणम् इत्युक्ते, आवरणम् इत्युक्ते पेरेन्थसिस्. आवरणे, आवरणे इति पदस्य विभक्तिः का? कः वदति? कोऽपि वक्तुं शक्नोति वा? आवरणे, आवरणे इति पदस्य विभक्तिः कः वदति?
रवळी भगिनी. सप्तमी विभक्तिरूपम्.
उत्तमम्. अनन्तरं विद्यमानस्य पदस्य तयोः विभक्तिरूपं किं?
षष्टिः.
उत्तमं. षष्टिविभक्ति. परन्तु अत्र पदस्य इति पदस्य विशेषणम् एव विद्यमानस्य. विद्यमानस्य इति पदं पदस्य इति पदस्य षष्टिरूपम्. उचितं रूपं रिक्ते स्थले लिखतु. अत्र रिक्ते स्थले तयोः पदयोः विभक्तिरूपं किं?
सप्तमी विभक्ति.
सप्तमी विभक्ति. वचनं किं?
बहुवचनानि. बहुवचनं.
अन्ये कोऽपि वदन्ति वा? न न भगिनी. रिक्ते स्थले इति सप्तमी एकवचनं. तयोः प्रथमाविभक्तिरूपं किं भवति? रिक्तं स्थलं. रिक्तं स्थलम् इति भवति. अनन्तरं महोदय, हस्मुख् महोदय, भवान् करोतु अधुना प्रथमं वाक्यम्. उदाहरणं पठित्वा अनन्तरं करोतु.
सरयू नद्याः तीरे अयोध्या अस्ति.
कस्याः तीरे अयोध्या अस्ति?
सरयू नद्याः तीरे अयोध्या अस्ति.
अयोध्या कुत्र अस्ति?
अयोध्या सरयू नद्याः तीरे अस्ति.
उत्तमं. प्रथमं करोतु.
अयोध्याया राजा दशरथः.
कस्याः राजा दशरथः?
अयोध्याया राजा दशरथः.
उत्तमम्. अयोध्यायाः राजा कः?
अयोध्याः राजा दशरथः.
उत्तमम्. द्वितीयम्.
दशरथस्य चत्वारः पुत्राः.
दशरथस्य कति पुत्राः?
दशरथः चत्वारः पुत्राः.
उत्तमम्. अनन्तरं
प्रथमस्य नाम रामः.
कथमस्य नाम रामः?
प्रथमस्य नाम रामः.
प्रथमस्य नाम किम्?
प्रथमस्य नाम रामः.
उत्तमम्. उत्तमम्. अनन्तरं
द्वितीयस्य नाम भरतः.
द्वितीयस्य नाम किम्?
द्वितीयस्य नाम भरतः.
भरतः कस्य नाम इत्युक्ते भरतः कस्य कथमस्य नाम भरतः इत्युक्ते द्वितीयस्य नाम भरतः. वदतु. अनन्तरं
तृतीयस्य नाम, तृतीयस्य चतुर्थस्य च नाम लक्ष्मणः शत्रुघ्नः च.
उत्तमं. तृतीयस्य चतुर्थस्य च नाम लक्ष्मणः शत्रुघ्नः. अत्र च इति एकम् एकाक्षरपदम् अस्ति. एकाक्षरपदम् इत्युक्ते च इत्युक्ते भवान् जानाति वा? च इत्युक्ते किम्?
Cha is and.
Is like respectively.
Hasmukh Mahodaya, Bhavan Vatati.
Yeah, it is cha is and, isn't it? In English, we put and in between the two nouns, but here I think it comes at the end.
Uttamo. Tavadeva. Anantram?
Ramaha Kaushalyaya Putraha.
Ramaha Kasyaha Putraha.
Ramaha Kaushalyaya Putraha.
Kaushalyaya Putraha Kaha.
Kaushalyaya Putraha Ramaha.
Uttamo. Anantram?
Lakshmanasya Satrughnasya Cha Mata Sumitra.
Tasmat Purvam Ekam Vakyam Asti. Tasmat Purvam.
Bharatasya Bharataha Kaikai. I don't know what is the Shashti Vibhakti of Kaikai. Kaikeyah. Okay. Bharataha Kaikeyah Putraha.
Atra Kaikeyah ityasmin pade yakaram dvivaram agachati. You will find ya two times. Kaikeyah.
Kaikeyah. Right?
Tatra Kaikeyi Navadamaha Kaikeyah. तत्र संधिः भवति अहं चिन्तयामि अत्र कैकेय्याः इति समीचीनं रूपम्
ओके
सम्यक् रूपम् अनन्तरं
लक्ष्मी यू हैव विसर्ग आफ्टर कैकेय्याः
अन्ते विसर्गः अस्ति कैकेय्याः यथा कौसल्यायाः अत्र कौसल्या इति पदम् आकारान्तस्त्रीलिङ्गपदं कैकेयी ईकारान्तस्त्रीलिङ्गपदं यथा गौरी नदी शब्दवत् अनन्तरं करोतु महोदय
लक्ष्मणस्य शत्रुघ्नस्य च माता सुमित्रा
कस्य माता सुमित्रा कयोः माता कयोः इत्युक्ते द्विवचनं संस्कृतभाषायां द्विवचनम् अपि अस्ति एकवचनं द्विवचनं बहुवचनम् अत्र लक्ष्मणः शत्रुघ्नः द्विवचनम् अतः कयोः माता सुमित्रा उत्तरं वदतु
सुमित्रा लक्ष्मणस्य शत्रुघ्नस्य च माता
उत्तमं तथा एव वक्तुं शक्नुमः अन्यत् रूपमपि विकल्पेन अपि वक्तुं शक्नुमः लक्ष्मणशत्रुघ्नयोः माता
ओके
तथापि वक्तुं शक्नुमः लक्ष्मणशत्रुघ्नयोः माता सुमित्रा अथवा लक्ष्मणस्य शत्रुघ्नस्य च माता सुमित्रा तदपि समीचीनम् अर्थः समानः अनन्तरम् अन्तिमं करोतु महोदय
रामः रावणस्य कुम्भकर्णस्य च वधं कृतवान्
रामः कयोः वधं कृतवान्
रामः रावणस्य कुम्भकर्णस्य वधं कृतवान् च वधं कृतवान्
द्विवचने वदामश्चेत्
रामः रावणः रावणस्य कुम्भकर्णयो च वधं कृतवान्
अत्र रावणकुम्भकर्णयोः वधं कृतवान् तावदेव उत्तमं महोदय धन्यवादः अनन्तरं
ऐ हेड् वन् डौट् लक्ष्मीजी
भगिनी
yesterday's class, well, the last week's class, you mentioned that in case of feminine nouns, in case of Lakshmi only, Visarga comes, right? Is that correct?
Most of the time, generally, there is a group of words like Lakshmi, Dhihi, like that, there is a group of words they have visarga at the end.
Acha, but it is not necessary that all e ending female nouns should have visarga, right?
Yeah. Yatha nadi iti padam dirgha ikaranta padam parantu tatra visargah nasti.
Okay, so it is only for few words such as Lakshmihi.
Itchukte, okay. They're all they belong to a separate group of words.
Okay.
Nadi, Gauri, Tesham ante visargah nasti parantu Lakshmihi dhihi etani yateho padayoh ante visargah asti. लक्ष्मी इति पदस्य अन्ते विसर्गः अस्ति एव. उत्तमं. द्वितीय अभ्यासं 1.9 आ भागे कः कर्तुमिच्छति? अत्र किम् अस्ति? कः करोति?
अहं कर्तुमिच्छामि भगिनि, सायिरवळ्ळि.
करोतु भगिनि.
मधुरायाः राजा उग्रसेनः.
कस्याः राजा उग्रसेनः?
मधुरायाः राजा उग्रसेनः.
उग्रसेनः कस्याः राजा?
उग्रसेनः मधुरायाः राजा.
अनन्तरम्?
उग्रसेनस्य पुत्रः कंसः.
कस्य पुत्रः कंसः?
उग्रसेनस्य पुत्रः कंसः.
कंसः कस्य पुत्रः?
कंसः उग्रसेनस्य पुत्रः.
अनन्तरं?
कंसस्य भगिनी देवकी.
कस्य भगिनी देवकी?
कंसस्य भगिनी देवकी.
देवक्याः भ्राता कः?
देवक्याः भ्राता कंसः.
देवक्याः भ्राता कंसः.
कंसः. देवक्याः पतिः वसुदेवः, पुत्रः कृष्णः.
देवक्याः पतिः कः?
देवक्याः पतिः वसुदेवः.
देवक्याः पुत्रः कः?
देवक्याः पुत्रः कृष्णः.
कृष्णः कस्याः पुत्रः?
कृष्णः देवक्याः पुत्रः.
कृष्णः कयोः पुत्रः?
कृष्णः देवकी वसुदेवयोः पुत्रः.
उत्तमम्. अनन्तरम्?
कृष्णः नन्दगोपस्य यशोदायाः च पालितपुत्रः अपि.
पालितपुत्रः इत्युक्ते
रूलिङ्ग् युवराज.
अडाप्टेड्.
उत्तमम् उत्तमम्. अडाप्टेड् सन्. अवगच्छति वा भगिनी? कस्य कयोः पालितपुत्रः कृष्णः?
नन्दगोप यशोदायोः पालितपुत्रः कृष्णः.
कृष्णः. अत्र नूतनम् अन्यं पदमस्ति च अपि च अपि अपि इति पदमस्ति. अपि इत्युक्ते कः वदति? अपि नूतनं पदम्.
And also.
Chai chukte and. Api chukte also.
Also.
Anantram.
Okay. Kuntyaha putraha Arjunaha.
Kasya putraha Arjunaha. Kasyaha putraha Arjunaha.
Kuntyaha putraha Arjunaha.
Arjunasya mata ka?
Arjunasya mata Kunti.
Kunti. उत्तमं. कुन्ती विभक्तिवचनलिङ्गम् अन्तमपि वदतु. चत्वारि लक्षणानि वदतु. चत्वारि लक्षणानि इत्युक्ते
ईकारान्त स्त्रीलिङ्ग षष्ठी विभक्तिरूपं.
कुन्ती
कुन्ती ईकारान्त स्त्रीलिङ्ग एकवचनं षष्ठी विभक्तिरूपम्.
न भगिनी, कः वदति?
प्रथमा विभक्ति.
कः वदति भगिनी भवत्याः नाम किं
गीता
गीता भगिनी उत्तमं भगिनी आम् प्रथमा विभक्ति भगिनी अवगच्छति वा कुन्ती षष्ठी विभक्तिरूपं किं भवती एव वदतु
कुन्त्याः
कुन्त्याः पुत्रः कः
कुन्त्याः पुत्रः अर्जुनः
अर्जुनस्य माता
कुन्ती
अनन्तरं करोतु
सः अर्जुनः कृष्णस्य भगिन्याः सुभद्रायाः पतिः
अत्र अर्जुनः कः
अर्जुनः सुभद्रायाः पतिः
सुभद्रा का
सुभद्रा कृष्णस्य भगिनी अर्जुनस्य सती अपि
भार्या अनन्तरं करोतु
सुभद्रायाः पुत्रेः अभिमन्युः
अभिमन्योः माता का
अभिमन्योः माता सुभद्रा
सुभद्रायाः पुत्रः कः
सुभद्रायाः पुत्रः अभिमन्युः
उत्तमम् अनन्तरम्
अभिमन्युः उत्तरायाः पतिः
उत्तरायाः पतिः कः
उत्तरायाः पतिः अभिमन्युः भगिनी एकः प्रश्नः उपरि आभागे प्रथमस्य नाम रामः इत्युक्ते एकं वाक्यम् अस्ति प्रथमस्य नाम अत्र कथमस्य नाम रामः कथमस्य कथमस्य कन्फ्यूस् कथमस्य और् कथा
अहं चिन्तयामि कथमस्य कति जानाति वा कति कथम
ओके
कति इत्युक्ते कः वदति कति
हौ
मेन् कति पुस्तकानि सन्ति कति फलानि सन्ति तदा वदामः अत्र कथमः पुंलिङ्गे वदामश्चेत् कथमः स्त्रीलिङ्गे कथमा नपुंसकलिङ्गे कथमम् तथा भवति अनन्तरम् अन्तिमं वाक्यं करोतु
उत्तरायाः पतिः
अत्र मम पार्श्वे अन्यं वाक्यमपि अस्ति उत्तरा विराटराजः पुत्री तदा अन्यत् वाक्यमपि अस्ति अस्तु भगिनि परिसमाप्तं कः करोति उत्तमं धन्यवादः भगिनी अनन्तरं वयं किं कुर्मः इत्युक्ते भवन्तः सर्वे षष्ठीविभक्तिः जानन्ति इति ज्ञातवन्तः इति अहं चिन्तयामि नास्ति चेत् किञ्चित् अभ्यासं पुनः कुर्मः वा नो चेत् सर्वे अवगतवन्तः वा एकवारं वदन्तु नो चेत् किञ्चित् अभ्यासं कुर्मः इतोपि अधिकम् अभ्यासं कुर्मः नो चेत् अग्रे सरेम इफ् यु आलरेडि अण्डर्स्टाण्ड् षष्ठी विभक्ति वी केन् प्रोसीड् फर्दर् नो चेत् इफ् नाट् वी केन् डू सम् मोर् एक्ससैजस् आन् षष्ठी विभक्ति
भगिनी अवगच्छामि परन्तु लिटिल् बिट् कन्फ्यूस्ड्
कन्फ्यूस्ड् किञ्चित् केवलं पञ्चनिमेषं वदतु महोदय
Lakshmiji, where can we practice more about Shashti Vibhakti?
Adhana kurmaha, kinchit itopi adhikam abhyasam kurmaha bhavan ichchati chit, kinchit itopi kurmaha. Bhavan karot mohodaya, Samir mohodaya va, for Rajiv Singh mohodaya. Mohodaya?
Yes, this is Samir here.
समीर महोदय अस्ति वा? भवान् एव करोतु. अहं कांश्चन प्रश्नान् पृच्छामि. दशरथस्य भार्या का?
दशरथस्य भार्या कैकेयी.
कैकेय्याः पतिः कः?
कैकेय्याः पतिः दशरथः.
कस्य भार्या देवकी? वसुदेवः.
वसुदेवः भार्या.
वाक्यं वदतु.
वसुदेवस्य भार्या देवकी.
देवकी. देवक्याः पतिः कः?
देवक्याः पतिः वसुदेवः.
तथा एव. अनन्तरं यदि षष्ठीविभक्तिः इत्युक्ते सम्बन्धः, षष्ठीविभक्तेः उपयोगम् अन्येषु स्थलेषु अपि भवति, परन्तु अत्र सम्बन्धवाचकषष्ठी इति वदामः. अधुना वयं किञ्चित् इतोपि अभ्यासं कुर्मः. मातापुत्रयोः सम्बन्धः दृश्यते, यथा रामः कौसल्या, तथा रामः कौसल्या तयोः पदयोः मध्ये सम्बन्धम् अस्ति. अहं कानिचन पदानि ददामि महोदय. रामः कौसल्या इति पदद्वयम् उपयुज्य वाक्यं रचयतु.
रामस्य माता कौसल्या.
कस्य माता कौसल्या?
रामस्य माता कौसल्या.
कौसल्यायाः पुत्रः कः?
कौसल्याः पुत्रः रामः.
उत्तमं. लक्ष्मणः सुमित्रा, वदतु.
लक्ष्मणस्य पुत्र, लक्ष्मणस्य माता सुमित्रा.
सुमित्रायाः पुत्रः कः?
सुमित्राः पुत्र
लक्ष्मणः. लक्ष्मणस्य माता का?
लक्ष्मणस्य माता
सुमित्रा. उत्तमम्. अनन्तरम् आञ्जनेयः अञ्जना इति पदद्वयम् उपयुज्य वाक्यं रचयतु.
आञ्जनेयस्य माता अञ्जना.
कस्य माता अञ्जना?
आञ्जनेयस्य माता अञ्जना.
आञ्जनेयस्य माता का?
आञ्जनेयस्य माता अञ्जना.
अञ्जनायाः पुत्रः कः?
अञ्जनाः पुत्र आञ्जनेयः.
उत्तमं. गणेशः पार्वती करोतु.
पार्वत्याः पुत्र गणेशः.
गणेशस्य माता का?
गणेशस्य माता पार्वती.
पार्वत्याः पुत्रः?
परस्य पुत्रः गणेशः.
उत्तमम्. अर्जुनः कुन्ती करोतु.
अर्जुनस्य माता कुन्ती.
कुन्त्याः पुत्रः कः?
कुन्त्याः पुत्र अर्जुनः.
कृष्णः देवकी. कृष्णस्य माता
देवकी.
देवक्याः पुत्रः?
देवक्याः पुत्रः कृष्णः.
उत्तमं. भरतः कैकेयी.
भरतस्य माता कैकेयी. कैकेय्याः पुत्रः भरतः.
उत्तमम्. अनन्तरं गीता भगिनी. धन्यवादः महोदय. गीता भगिनी भवती करोति वा? तथा एव गुरुशिष्ययोः सम्बन्धः अपि षष्ठीविभक्तिम् उपयुज्य वयं वदामः. यथा भवती करोतु. रामः वसिष्ठः.
वसिष्ठस्य शिष्यः रामः
रामस्य गुरुः
वसिष्ठः
उत्तमं रामस्य गुरुः कः
वसिष्ठः रामस्य गुरुः
उत्तमम् अर्जुनः द्रोणः
अर्जुनस्य गुरुः द्रोणः द्रोणस्य शिष्यः अर्जुनः
उत्तमं कर्णः परशुरामः
परशुरामस्य शिष्यः कर्णः कर्णस्य गुरुः परशुरामः
उत्तमम् अनन्तरम् एकलव्यः द्रोणः
एकलव्यः द्रोणस्य शिष्यः द्रोणस्य गुरुः सारी एकलव्य द्रोणस्य शिष्यः एकलव्यः
एकलव्यस्य गुरुः
एकलव्यस्य गुरुः द्रोणः
द्रोणस्य शिष्यः कः
द्रोणस्य शिष्यः एकलव्यः
उत्तमं विवेकानन्दः रामकृष्णः वदतु
विवेकानन्दः रामकृष्णस्य शिष्यः रामकृष्णः विवेकानन्दस्य गुरुः
उत्तमं धन्यवादः भगिनी अनन्तरं
धन्यवादः
अनन्तरं वसुप्रदा भगिनी भवती कर्तुमिच्छति वा किञ्चित्
अस्तु भगिनि
पतिपत्न्योः मध्ये सम्बन्धः अत्र पतिः इत्युक्ते नाथः इति पदमपि अस्ति पर्यायवाचकपदं रामः सीता करोतु वाक्यद्वयं रचयतु
रामः सीतायाः पतिः सीता रामस्य पत्नी
उत्तमं कृष्णः सत्यभामा
कृष्णः सत्यभामायाः पतिः सत्यभामा कृष्णस्य पत्नी
उत्तमं कृष्णः राधा
कृष्णः राधायाः पतिः राधा कृष्णस्य पत्नी
उत्तमं शङ्करः उमा
शङ्करः उमायाः पतिः उमा शिवस्य पत्नी
उत्तमं दशरथः अभवत् अनन्तरं रामकृष्णः शारदा
रामकृष्णः शारदायाः पतिः शारदा रामकृष्णस्य पत्नी
उत्तमं शिवः पार्वती
शिवः पार्वत्याः पतिः पार्वती शिवस्य पत्नी
उत्तमम् उत्तमम् उत्तमं भगिनि धन्यवादः अनन्तरं पद्मिनी भगिनी भवती करोति वा
आम्
पाण्डुराजः कुन्ती
पाण्डुराजस्य पत्नी कुन्ती कुन्त्याः पति पाण्डुराजः पतिः
उत्तमम् वसुदेवः देवकी
वसुदेवस्य पत्नी देवकी देवक्याः पतिः वसुदेवः
उत्तमं कृष्णः रुक्मिणी
कृष्णस्य पत्नी रुक्मिणी रुक्मिण्याः पतिः कृष्णः
उत्तमं कृष्णः जाम्बवती
कृष्णस्य पत्नी जाम्बवती जाम्बवत्याः पतिः कृष्णः
रावणः मण्डोदरी
रावणस्य पत्नी मण्डोदरी मण्डोदर्याः पतिः रावणः
उत्तमं, धन्यवादः. अनन्तरम् अधुना किं कः कर्तुम् इच्छति? राजीव् सिङ्ग् महोदय, भवान् करोति वा?
Yes.
Okay. अत्र अहं केवलं पदं वदामि, भवान् षष्टिविभक्तेः रूपं वदतु. रामः षष्टिविभक्तिरूपम् एकवचने वदतु.
रामस्य.
उत्तमं. दण्डः.
दण्डस्य.
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 तावदेव. तावदेव, तत्र विसर्गः नास्ति. रामः रामस्य, दण्डः दण्डस्य. एषः, वयं जानीमः एषः सः. एषः इति पदस्य षष्ठीरूपम् एतस्य. उत्तमं. सः.
तस्य.
अनन्तरं एषः कः, सः कः इति वयं जानीमः. अत्र कः, कः इति पदस्य षष्टिरूपं कस्य. उत्तमं. भवान्, भवान् इति पदं जानाति भवान्. भवान् कः, भवान् कः इति वयं जानीमः. भवान् शब्दस्य षष्टिरूपं भवतः.
भवतः.
अहम्, अहम् अहम् अहं गृहिणी, अहं लक्ष्मीः. वयं जानीमः अहम् इति पदम्. अहं शब्दस्य षष्टिरूपं वदति वा?
मम.
मम. उत्तमम्, उत्तमं. नपुंसकलिङ्गपदानि, कानिचन पदानि वदामि, षष्टिविभक्तेः रूपं वदतु. पुस्तकं.
पुस्तकस्य.
उत्तमम्. एतत्. एतत् इति पदमपि
नपुंसकलिङ्गपदम्.
एतस्य. तत्.
तस्य.
तस्य. किं, किम् इति पदं नपुंसकलिङ्गपदं. किम् इति पदस्य षष्टिरूपं कस्य. अत्र 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 किमस्ति चेत्, पुंलिङ्गपदयोः, पुंलिङ्गपदस्य नपुंसकलिङ्गपदस्य षष्टिविभक्तेः रूपं समानम्. यथा रामः रामस्य, पुस्तकं पुस्तकस्य. अत्र पुंलिङ्गपदस्य नपुंसकलिङ्गपदस्य षष्टिविभक्तेः रूपं समानं. परन्तु अत्र स्त्रीलिङ्गपदं पदानां विषये भिन्नरूपाणि, भिन्नरूपाणि सन्ति. सीता वदतु. सीता शब्दस्य
सीतायाः.
कुञ्चिका.
कुञ्चिकायाः.
कुञ्चिका इत्युक्ते किं जानाति वा?
कुञ्चिका स्त्रीलिङ्ग.
कुञ्चिका इति पदस्य अर्थः कः, कः वदति? कुञ्चिका इत्युक्ते किम्? कुञ्चिका इत्युक्ते कीस्. कुञ्चिकया. कुञ्चिकया वयं तालम् उद्घाटयामः. कीस्, लाक् एण्ड् की, यु नो, लाक् एण्ड् की, तालम् इत्युक्ते लाक्. कुञ्चिका.
कुञ्चिकया इस् तृतीयविभक्ति न?
आम् आं भगिनि. कुञ्चिकया तालम् उद्घाटयामि. उत्तमं. कुञ्चिका इत्युक्ते कीस्. अनन्तरं महोदय, भवान् वदतु, पार्वती इति पदस्य षष्टिरूपं किम्?
पार्वत्याः.
देवी.
देव्याः.
दर्वी. दर्वी. दर्वी इत्युक्ते सर्विङ्ग् स्पून्. चिन्तयतु, पुनः चिन्तयतु. दर्वी.
दर्वीयस्य. दर्वीस्य. दर्वीयस्य.
चिन्तयतु. दर्वी ईकारान्तस्त्रीलिङ्गपदम्. दर्व्याः.
दर्व्याः.
एषा. एषा इति पदं वयं जानीमः. एषा महिला, एषा बालिका. एषा इति पदस्य षष्टिरूपम् एकवचने एतस्याः. अनन्तरं सा इति पदस्य षष्ठीरूपं तस्याः
तस्याः
अनन्तरं भवती का गतसप्ताहे वयं ज्ञातवन्तः भवान् कः भवती का इति प्रश्नद्वयं तत्र एव तथा एव अत्र का इति पदस्य षष्ठीरूपं कस्याः तथा एव अधुना सम्यक् अभ्यासः अभवत् इति अहं चिन्तयामि ऐ थिङ्क् द वि प्राक्टिस् पर्फेक्ट्लि दिस् षष्ठीविभक्ति एक्ससैस् अण्ड् अनन्तरम् अहं
धन्यवादः
वदतु महोदय
सो इन् द 1.9 सो देर् इस् तृतीयस्य चतुर्थस्य च नाम लक्ष्मणः शत्रुघ्नः च च इस् एण्ड् रैट्
एण्ड्
सो दे आर् यूसिङ्ग् टु एण्ड्स् इन् दिस् सेण्टेन्स्
या यु आर् अलौड् टु यूस् लैक् देट् वन् वे आफ् रैटिङ्ग् इस् यु केन् एड् च आफ्टर् इमिडियेट्लि आफ्टर् एव्रि वर्ड् that's also acceptable and sometimes they use cha absolutely in the end
only one cha
that is also acceptable
okay
bhavan eva karatu mahodaya bhavatah desasya namakim bhavan kutra vasati where do you live देशस्य नाम किम् मम देशस्य नाम
मम देशस्य नाम अमेरिका अमेरिका
उत्तमं मम देशस्य नाम अमेरिकादेशः अनन्तरम्
अमेरिकादेशः
अमेरिकादेशे भवतः राज्यस्य नाम किं राज्यः इत्युक्ते स्टेट् भवतः राज्यस्य नाम किं किमपि वदतु यु डोण्ट् नीड् टु टेल् द ट्रूत् बट् किमपि वदतु सत्यं वा न वा अनन्तरं चिन्तयामः राज्यः इत्युक्ते न्यूजर्सि
मम राज्यः
वदतु
मम राज्यः न्यूजर्सि न्यूजर्सि
मम राज्यस्य नाम
न्यूजर्सीराज्यः
अनन्तरं न्यूजर्सीराज्ये भवतः नगरस्य नाम किं न्यूजर्सीराज्ये
मम नगरस्य नाम माल्बरो
उत्तमम् अनन्तरं यदि नगरे नो चेत् भवतः ग्रामस्य नाम किं तदपि वक्तुं शक्नुमः अनन्तरम् अमेरिकादेशस्य राजधानी का राजधानी नगरं किम्
अमेरिकस्य राजधानी वाशिङ्ग्टन् डि सि
उत्तमम् अमेरिकादेशस्य राजधानी वाशिङ्ग्टन् डि सि नगरम्
अनन्तरं
उत्तमम् अनन्तरम् अहम् अन्तिमं प्रश्नं पृच्छामि भवतः सदनिकायाः नाम किं सदनिका इत्युक्ते अपार्ट्मेण्ट् केवलं वदतु नो महोदय
मम ग्रामस्य
नाम
नाम
किमपि तथा एव सदनिका इत्युक्ते अत्र अपार्ट्मेण्ट् सदनिकायाः नाम किम् इत्युक्ते वाट् इस् युवर् अपार्ट्मेण्ट् नेम् तथा एतानि सर्वाणि वाक्यानि अपि षष्टिविभक्तेः कृते एव अधुना सम्यक् अभ्यासः अभवत् सम्यक् महोदय धन्यवादः अनन्तरम् अधुना वयं किं कुर्मः इत्युक्ते अत्र एकं करपत्रमस्ति करपत्रे एकं सम्भाषणमस्ति सम्भाषणं पठामः अधुना सर्वेषां पार्श्वे सम्भाषणस्य करपत्रं स्यात् I want you to keep the sambhashane karapatram in front of you. Mm-hmm. Sarvesham parshve asti va?
Am bhagini.
कः वदति सुबारो महोदय भवान् करोति वा भवान् पठति वा अत्र नो चेत् अत्र किं कुर्मः इत्युक्ते अत्र पद्मिनी भगिनी अपि च गीता भगिनी पद्मिनी भगिनी पथिकः गीता भगिनी शिल्पकारः अत्र सम्भाषणं पठन्तु अत्र शीर्षिका का
शिल्पकारः
शिल्पकारः इत्युक्ते कः
शिल्पी
इत्युक्ते आर्टिसन् आर्किटेक्ट् आर्टिसन् शिल्पकारः इत्युक्ते यः शिल्पं करोति सः शिल्पकारः शिल्पकारः इति सम्यक् पदं शिल्पी इति अपि समीचीनम् अनन्तरम् अत्र पधिकः पधिकः इति पदमस्ति पधिकः इत्युक्ते
ट्रावेलर्
उत्तमं संस्कृतभाषायां वदामश्चेत् अत्र यात्रिकः अथवा पादचारी अथवा पर्यटकः अथवा प्रवासी एतानि सर्वाणि पर्यायवाचकपदानि अपि उपयुज्य तेषाम् अर्थः अपि समानः एव पथिकः इत्युक्ते भवन्तः सर्वे पथम् इति जानन्ति वा पथम् इत्युक्ते मार्गः पथम् इत्युक्ते मार्गः यः पथे गच्छति सः पथिकः द वन् हू ट्रावेल्स् आन् द रोड् इस् पथिकः पथं पथः पथिकः अधुना पठन्तु पथिकः शिल्पकारः
भोः शिलां कुद्रुयित्वा भवान् किं वा करोति
अत्र पश्यतु भगिनि अत्र वाक्यमस्ति कुट्टयित्वा अत्र कुट्टयति इत्युक्ते शिल्पकारः शिल्पस्य निर्माणार्थं सः किं करोति सः मन्दं मन्दं शनैः शनैः शिलां ताडयति हिल् हिट् द स्टोन् यूसिङ्ग् द चिज़ल् तत् कार्यमेव कुट्टयनम् क्रियापदमस्ति कुट्टयति अत्र अत्र क्त्वान्तरूपं दत्तमस्ति कुट्टयित्वा सः वदति भोः शिलां कुट्टयित्वा भवान् किं वा करोति भोः भोः इत्युक्ते
सम्बोधनं
भोः शिलां कुट्टयित्वा भवान् किं वा करोति अनन्तरं वदतु भगिनि गीता भगिनि
अहं गणेशस्य विग्रहं करोमि
अवगतवती वा अस्मिन् वाक्ये षष्टिविभक्तेः रूपं किं
गणेशस्य
उत्तमं पद्मिनी भगिनि
किमर्थं भवान् शिवस्य विग्रहं न करोति किं भवान् गणेशस्य भवतः
पुनः पुनः पठतु भगिनि
किमर्थं भवान् शिवस्य विग्रहं न करोति किं भवान् गणेशस्य भवतः भक्तः
किं वा किं भवान् गणेशस्य भक्तः अवगतवती वा सर्वे अवगतवन्तः सर्वे अत्र सर्वे अवगतवन्तः वा
अस्तु भगिनि
अनन्तरं पठन्तु
शिवस्य विग्रहः लिङ्गरूपः अतः अहं गणेशस्य विग्रहं करोमि.
पदिकः किं वदति, वदतु भगिनी पद्मिनी
भगिनी. नेक्स्ट् वन्. भवान् सर्वविधान् विग्रहान् अपि करोति किम्?
भवान् सर्वविधान् विग्रहान् अपि करोति किम् इत्युक्ते आङ्ग्लभाषायां वदतु.
Do you do all kinds of vigraha?
Uttam. Murtihi. Murtihi chukte. Murtihi adhava devata pratima adhava devasya pratikrutihi. Etani pariyayavachaka padani. Vigraha, murtihi, pratima adhava pratikrutihi. Karatu.
Bhavate कीदृशः विग्रहः आवश्यकः? देवस्य चेत् कस्य देवस्य, देव्याः चेत् कस्याः देव्याः, रामस्य, लक्ष्म्याः, सरस्वत्याः, उत कृष्णस्य, कस्य विग्रहः आवश्यकः?
भवती अवगतवती वा?
ऐ डोण्ट् अण्डर्स्टाण्ड् द वर्ड् उत.
अन्यानि वाक्यानि वदतु, स्वस्य वाक्यैः वदतु. इन् युवर् ओन् सेण्टेन्सेस् ट्रै टु एक्स्प्लेन्.
ओ मै गाड्.
किमपि वदतु भगिनि.
भवते कृष्णस्य भवते कीदृशः विग्रहः आवश्यकः?
कीदृशः कीदृशः इत्युक्ते
वट् कैण्ड् आफ्
भवते. अत्र पश्यन्तु, भवते इति पदमस्ति. भवते इति पदस्य रूपं किं, कः वदति?
सप्तमी.
गीता भगिनी वदतु.
भवते
भवती उक्तवती एव, भवान् शब्दस्य चतुर्थीरूपं भवते. भवते कीदृशः विग्रहः आवश्यकः इति शिल्पकारः अधिकं पृच्छति.
देवस्य चेत् इफ् इट् इस् मेल् गाड् देवस्य रूपं, देवस्य विग्रहः चेत् कस्य देवस्य रूपं, कस्य देवस्य विग्रहः आवश्यकः? देव्याः विग्रहः चेत् कस्याः देव्याः, रामस्य, लक्ष्म्याः, सरस्वत्याः, कृष्णस्य कस्य विग्रहः आवश्यकः?
अस्मिन् परिच्छेदे इत्युक्ते पेराग्राफ् अस्मिन् परिच्छेदे षष्टिविभक्तेः रूपाणि वदतु.
देवस्य, कस्य, देव्याः, कस्याः, देव्याः रिपीट्, रामस्य, लक्ष्म्याः, सरस्वत्याः, कृष्णस्य, कस्य. That's it.
उत इत्युक्ते अथवा.
ओ ओके, धन्यवादः.
वा इति अपि वक्तुं शक्नुमः. वा इत्युक्ते अपि विकल्पेन अथवा कारणेन. अत्र शिल्पकारः किं वदति, रामस्य, लक्ष्म्याः, सरस्वत्याः, उत कृष्णस्य, ओरल्स् कृष्णस्य, ओरल्स् उत इत्युक्ते ओरल्स्. अनन्तरं पठतु भगिनि.
नवरात्रसमये पूजां कर्तुं लक्ष्म्याः विग्रहः आवश्यकः, तथैव पार्वत्याः, गौर्याः विग्रहः अपि आवश्यकः.
अवगतवती वा? वदतु स्वस्य वाक्यैः वदतु.
During Navaratri time, when we do puja, we need Lakshmi and Parvati and Gauri Vigraha.
अनन्तरम् अनन्तरं
नवरात्रसमये नवरात्रिसमये नवरात्रसमये
नवरात्रसमये तत्र समासः अस्ति भगिनि समस्तपदं तत्र समासः अस्ति समस्तपदमिति वदामः नवरात्रसमये तत्र मुद्रणदोषः नास्ति देर् इस् नो प्रिण्ट् मिस्टेक् देर् पठतु अनन्तरं करोतु शिल्पकारः किं वदति
भवते कदा आवश्यकं
कदा आवश्यकं
कदा आवश्यकं
कदा इत्युक्ते
वेन्
वेन् भवते कदा आवश्यकम् उत्तमम् अनन्तरं
मह्यं जुलै मासस्य विंशतिः दिनाङ्के
भगिनी अत्र विंशतिः वा दश वा दश वा अत्र पश्यतु दशदिनाङ्के
जुलै मासस्य दशदिनाङ्के आवश्यकं कृत्वा ददाति किम् एकस्य विग्रहस्य कृते कति रूप्यकाणि
रूप्यकाणि एकस्य विग्रहस्य कृते कति रूप्यकाणि इति सः पृच्छति अत्र रूप्यकाणि इति पदमस्ति तस्य एकवचनं किं भवति कः वदति
रूपं
पुनः
रूपं
उत्तमं रूप्यकं एकवचने रूप्यकं बहुवचने किं भवति
रूप्यकाणि
तथा एव डालर् 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 बहुवचने किं भवति
डालर्स्
आङ्ग्लभाषा मास्तु भगिनि
रूप्यकाणि
न न अत्र डालर् डालराणि
डालराणि
डालराणि भवति तथा एव वक्तव्यं संस्कृतभाषायां वक्तव्यं चेत् अत्र दश डालराणि ददामि तथा एव वक्तव्यम् अनन्तरं करोतु
एकस्य विग्रहस्य कृते कति कृते इस् फार्
विग्रहस्य कृते तत्र किं भवति चेत् यदि चतुर्थीविभक्तेः उपयोगमपि कर्तुं शक्नुमः एकस्मै विग्रहाय विग्रहाय इत्यपि वक्तुं शक्नुमः विग्रहस्य कृते इति अपि समीचीनम् इत्युक्ते चतुर्थीविभक्तेः उपयोगमपि सम्यक् एव अत्र षष्ठीविभक्तेः उपयोगं कुर्मः विग्रहस्य कृते तदपि समीचीनं नो चेत् विग्रहाय इति अपि अथवा विग्रहार्थं एकस्य विग्रहार्थं कति रूप्यकाणि तदपि समीचीनम् अत्र केवलं एतत् सम्भाषणं षष्ठीविभक्तेः मौखिक अभ्यास तस्य कृते एव दत्तमस्ति
एकस्मै विग्रहाय कृते आर् नो कृते
तत्र कृते न चतुर्थीविभक्तेः उपयोगं कुर्मः चेत् कृते न भवति कृते इति पदं तत्र न भवति करोतु
धन्यवादः देव्याः इति कारणतः देव्याः इति कारणतः कति रूप्यकाणि इति न वदामि ओ देव्याः इति कारणतः कति रूप्यकाणि इति न वदामि भवानेव चिन्तयित्वा ददातु
अवगतवती वा
Because it is goddess's shilpam, I am not going to ask you for money. You give whatever you want to give.
Uttamam. Bhavan eva chintayitva vadatu, dadatu. Padhikaha kim vadati?
Astu, julai maasasya dasa dinanke agachami.
Uttamam. अत्र पश्यति भगिनि, थकारः, थकारः इति वदामः, थ थ इत्युक्ते ताथ दाध न तवर्गे पञ्च व्यञ्जनानि सन्ति. तकारः दन्त्य थ इत्युक्ते प्रथमवर्णः तकारः, द्वितीयवर्णः थ
महाप्राण,
अनन्तरं तृतीयवर्णः द, चतुर्थवर्णः ध, अत्र अस्ति थ तथा तथा एव अत्र पथिकः न तु पधिकः. पधिकः सम्यक् नास्ति, पथिकः. सर्वे अवगतवन्तः वा कथा अस्मिन् सम्भाषण न तु कथा सम्भाषणं किं
लक्ष्मी लक्ष्मी जी मह्यं वै मह्यं मी विच् विभक्ति इस् दट् वै डिड् वि यूस् मह्यं देर्
मह्यम् इति मम पदस्य चतुर्थीरूपं. सः किं वदति पधिकः, मह्यं जूलै मासस्य दशदिनाङ्के आवश्यकम्. महोदय हस्मुख् महोदय कृपया म्यूट् करोतु. धन्यवादः. अत्र मह्यं जूलै मासस्य दशदिनाङ्के आवश्यकम् इत्युक्ते फर् मी ऐ नीड् इट् बै द टेन्त् आफ् जूलै. तदेव सर्वे अवगतवन्तः वा? आल् आफ् यु अण्डर्स्टुड् द कान्वर्सेशन्? प्रश्नाः सन्ति वा?
प्रश्नः नास्ति भगिनि.
अत्र अस्मिन् सम्भाषणे बहूनि पदानि सन्ति, षष्टिविभक्ते विभक्त्यन्तरूपाणि पदानि, बहूनि पदानि सन्ति. उत्तमम् उत्तमः अभ्यासः एव. भवन्तः अवगच्छन्ति चेत् उत्तमं भवति. अनन्तरं सः किं वदति अत्र, देव्याः मूर्तिः इति कारणतः अहं कति रूप्यकाणि इति न वदामि इति सः वदति. किमर्थं तथा, कः वदति? He told, because you are buying the God's idol, I am not going to tell you the price of it. You give me what you think is the right price. Why did he say that? Kah vadati? Tasya uttaram?
It's actually priceless. It's actually priceless. You cannot put a price. So whatever you feel comfortable with, you give it.
उत्तमं भगिनि, तदेव तदेव अहं चिन्तयामि. इत्युक्ते एषा प्रतिमा, एषा प्रतिमा देवस्य प्रतिमा. सः चिन्तयति यत् एतस्य मूलं एतस्य मूल्यं सः गणयितुं न शक्नोति, अपि च तस्य मूल्यं गणयितुं न इच्छति सः. अत्र शिल्पकारः एतस्याः प्रतिमायाः मूल्यं गणयितुं न इच्छति, तथा एव तस्याः मूल्यं वयं न गणयितुं शक्नुमः. अतः एव सः वदति, भवान् यत् इच्छति तद् ददातु, भवान् एव चिन्तयित्वा उचितं धनं ददातु, अथवा नो चेत् यावत् शक्यं तावत् ददातु. तथा एव वयमपि अस्मासु कार्येषु यथा सः शिल्पकारः चिन्तयति तथा एव वयम् अपि विचिन्त्य कार्यं करणीयं. वि आल्सो शुड् थिङ्क् बिफोर् वि वाट् एवर् आक्टिविटि वि डू, वि आर् सपोस् टु थिङ्क् इन् ए मोर् क्वालिटि वे. अस्मासु कार्येषु अपि वयं सर्वे विचिन्त्य कार्यं करणीयम्. अनन्तरं अत्र अधुना वयं द्वादशपुटे तत्र किमस्ति इति किञ्चित् पश्येम. इदानीं पर्यन्तं षष्ठीविभक्तेः अभ्यासं कृतवन्तः. अत्र द्वादशे पुटे तत्र किमस्ति, अत्र अहम् एकं वक्तुमिच्छामि. इदानीं पर्यन्तं वयं सर्वे मिलित्वा एषः सः, एषा सा, एतत् तत्, भवान् भवति इति पदानां विषये किञ्चित् ज्ञातवन्तः. एतानि सर्वाणि पदानि सर्वनामपदानि अपि च प्रथमाविभक्त्यन्तरूपाणि. अहं पूर्वम् एव उक्तवती संस्कृतभाषायां सप्तविभक्तयः सन्ति. यदि एकं पदं प्रथमाविभक्तौ अस्ति चेत् तत् पदं कर्तृपदम् इति वदामः. If a word is in the Prathama Vibhakti, then we can say that it is the subject of the sentence. Punah vadami. Yadi ekam padam Prathama Vibhaktau asti, tat padam kartru padam. Karta ichukte kim? Yaha karyam karoti saha karta. Purvameva vayam jnatavantaha. Bhavan kaha, bhavati ka. इति जानीमः. भवान् कः इत्युक्ते भवान् किं कार्यं करोति इति अर्थः वयं जानीमः एव. तत्र भवान् इति पदं कर्तृपदं, तथा एव भवती किं कार्यं करोति इत्यस्मिन् वाक्ये भवती इति पदं कर्तृपदम्. इत्युक्ते भवान् भवती इति पदद्वयं कर्तृपदद्वयम्, तथा एव एषः सः, एषा सा, एतत् तत्, भवान् भवति, एतानि सर्वाणि पदानि अपि कर्तृपदानि. किमर्थं तथा? एतानि सर्वाणि पदानि अपि प्रथमाविभक्तौ सन्ति. एतानि सर्वनामपदानि अपि च कर्तृपदानि. अधुना वयं किं कुर्मः इत्युक्ते कर्तृसहितक्रियापदस्य उपयोगं कृत्वा वाक्यानि रचयामः. इत्युक्ते अस्मिन् द्वादशे पुटे कर्ता अस्ति अपि च क्रियापदमपि अस्ति. कर्तृसहितक्रियापदस्य उपयोगं कृत्वा वाक्यानि तत्र सन्ति. अधुना वयं द्वादशे पुटे किमस्ति इति तत्र गच्छामः. अत्र प्रथमं चित्रं सुब्बाराव महोदय, भवान् करोति वा?
आम्,
द्वादशे पुटे
क्रियापदानि.
अत्र प्रथमं चित्रं पश्यतु. सा किं करोति?
सा गच्छति.
सा कुत्र गच्छति? आपणं गच्छति. तस्याः हस्ते किम् अस्ति?
तस्याः हस्ते स्यूतः अस्ति.
तथा वयं किं वक्तुं शक्नुमः? सा महिला स्यूतेन सह गच्छति, अथवा सा महिला स्यूतं गृहीत्वा गच्छति, अथवा वि केन् से सा महिला स्यूतं नीत्वा गच्छति. अनन्तरं द्वितीयं चित्रं पश्यतु. द्वितीयं चित्रं सः किं करोति?
सः आगच्छति.
सः आगच्छति. कुतः आगच्छति? फ्रम् वेर् हि इस् कमिङ्ग्? न जानीमः.
सः कार्यालये.
कुतः?
कार्यालये आगच्छति.
अत्र पश्यतु, सः कार्यालयतः आगच्छति. कुतः?
सः कार्यालयतः आगच्छति.
उत्तमम्. अनन्तरं तृतीयं चित्रं सः किं करोति?
सः पठति.
किं पठति?
सः पुस्तकं पठति.
सः पुस्तकं पठति, नो चेत् पुस्तकं वा अथवा पत्रिका वा गृहपाठं वा किमपि. अनन्तरं चत्वारि
सः लिखति, काव्यं लिखति,
उत्तमम्. इत्युक्ते अत्र वयं किं कुर्मः, कर्तृपदं स्वीकृत्य कर्मपदम् अपि उपयुज्य क्रियापदम् अपि उपयुज्य वाक्यं रचयामः. वि आर् यूसिङ्ग् सब्जेक्ट् आब्जेक्ट् अण्ड् वर्ब् इन् द सेण्टेन्स्. पुनः वदतु तदेव वाक्यं महोदय.
सः काव्यं लिखति.
उत्तमं. सः इति पदं
सः कर्म कर्तृपदं कर्तृपदं काव्यं कर्मपदं कर्मपदं
लिखति
लिखति क्रियापदम्.
उत्तमं. लिखति इति पदस्य लकारः कः वक्तुं शक्नोति वा? लट् लकारः. लिखति लट् लकारः. अनन्तरं करोतु. सः किं करोति?
सः क्रीडति.
किं क्रीडति?
सः हाकी क्रीडां क्रीडति.
उत्तमं. हाकी क्रीडां क्रीडति.
हाकी क्रीडां क्रीडति.
केन सह क्रीडति?
बेट्.
बाल् अण्ड् बेट्. अत्र इत्युक्ते कन्दुकं, बाल् इत्युक्ते कन्दुकेन सह क्रीडति. अत्र पश्यतु, सः कन्दुकेन सह क्रीडति. प्रथमं सः इति पदमस्ति, अनन्तरं सः इति पदमस्ति, तयोर्मध्ये भेदः अस्ति वा?
प्रथम सः कर्मपदं कर्तृपदं सोरि सः फस्ट् वन् इस् द सब्जेक्ट् सः
अनन्तरं प्रथमपदं सः इति पदस्य अन्ते विसर्गः अस्ति. अनन्तरं द्वितीय सः अनन्तरं द्विवारं तस्य उच्चारणं भवति. सः कन्दुकेन सह क्रीडति. सः द्वितीयं पदं सः अस्ति, तत्र हकारं योजयामः. अवगतवान् वा?
आम्.
वदतु, पुनः वदतु तदेव वाक्यं.
सः कन्दुकेन सह क्रीडति.
उत्तमम्. अनन्तरं करोतु.
सः पिबति.
किं पिबति?
सः काफी पिबति.
अत्र पश्यतु, काफीं पिबति. जलं पिबति अथवा चायं पिबति. इत्युक्ते अत्र वदतु महोदय.
लास्ट् वन् सः चायं पिबति मीन्स्
चायं
ओके सोरि ओके सः काफीं पिबति सः जलं पिबति.
उत्तमम्. अत्र काफी इति पदम् ईकारान्त स्त्रीलिङ्गपदम् अतः कर्मपदम् अतः द्वितीयाविभक्तेः उपयोगं कुर्मः. काफीं पिबति.
काफीं पिबति.
परन्तु जलम् इति पदं नपुंसकलिङ्गपदम्. अतः जलम् इति पदं नपुंसकलिङ्गपदम् इति कृत्वा प्रथमाविभक्ति द्वितीयाविभक्तिरूपाणि समानानि. अतः सः जलं पिबति, सः काफीं पिबति,
चायं पिबति.
उत्तमम्. अनन्तरं करोतु.
सः खादति.
किं खादति?
सः भोजनं खादति.
उत्तमं. भोजनं खादति, नो चेत् मधुरं खादति.
मधुरं
अथवा रोटिकां खादति. अत्र पश्यन्तु, मधुरम् इति पदं नपुंसकलिङ्गपदं, परन्तु रोटिका आकारान्तस्त्रीलिङ्गपदं. परन्तु अत्र किं खादति, अत्र किं खादति इति प्रश्ने सति, इफ् यु आस्क् द क्वश्चन् किं, देन् इफ् यु आर् गोयिङ्ग् टु गेट् द आन्सर् देन् द आन्सर् शुड् बि इन् द सेकेण्ड् केस् इन् द द्वितीयाविभक्ति. अथवा तदर्थमेव अत्र सः रोटिकां खादति, सः फलं खादति. वदतु भगिनि.
चायं द्वितीया विभक्ति वा? चायं
चायं द्वितीया
प्रथमा विभक्ति वर्तते.
अहं चिन्तयामि तदेव भगिनि, चायमेव.
चायमेव, नपुंसकलिङ्ग.
Actually, these words are coined recently. They were not there.
I know.
Chayam. Anantram. Atra. Sa kim karoti?
Sa pashyati.
Kim pashyati?
Chitra padam pashyati.
Chitre kim asti?
Chitre kim asti? चित्रे नाविका नौका अस्ति.
उत्तमं. समुद्रे तरन्ती नौका अस्ति.
समुद्रे तरन्ती नौका अस्ति.
समुद्रे तरन्ती नौका अस्ति. तरन्ती इत्युक्ते तरन्ती इस् शत्रन्तपदं. दट् मीन्स् इट् इस् तरन्ती इत्युक्ते इट् इस् फ्लोटिङ्ग् आन् द वाटर्. Continuous tense. Taranti nauka iti vadamaha. Sa mahila
bhagini agre chara charema iti padasya chara padasya artham kim bhagini?
Agre sarema sarati. Sarati iti ha trapashyatu bhagini. Sarati ichukte gachati.
Gachati.
Paryayavachaka kriyapadam. वयं जानीमः चलति, गच्छति, सरति. परन्तु सरेम इत्युक्ते तत्र उत्तमपुरुष. परन्तु लट्लकारः नास्ति. अनन्तरं सरति. सरति इति पदात् आगतः, आगतं पदम्. अनन्तरं महोदय भवान् एव पठतु. अनन्तरं नवमं चित्रं.
सः हसति.
अत्र पश्यतु महोदय, वयं सः किं हसति इं न पृच्छामः. वि केनाट् आस्क् द क्वश्चन् किं किं हसति. वि आर् नाट् अलौड् टु आस्क् द क्वश्चन् किं हसति. परन्तु सः किमर्थं हसति इति प्रष्टुं शक्नुमः. वि केन् आस्क् द क्वश्चन् किमर्थं हसति.
वै वि लाफिङ्ग्.
तथा एव वक्तव्यम्. अत्र हस् इति हसति इति क्रियापदम् अकर्मकक्रियापदम् इति वदामः. अन्यानि सर्वाणि अपि सकर्मकक्रियापदं क्रियापदानि. इत्युक्ते अन्यानि पदानि कर्मपदं स्वीकुर्वन्ति, परन्तु हसति इति क्रियापदं कर्मपदं न स्वीकरोति. अवगतवान् वा? इत्युक्ते अत्र किं हसति इति न पृच्छामः, सः किमर्थं हसति इति एव वक्तुं शक्नुमः. दट् मीन्स् वि आर् नाट् अलौड् टु से किम् एक्स्क्लूसिव्लि. दिस् हसति इति क्रियापदं तस्य मूलरूपमस्ति हस् इति धातुः, अकर्मकधातुः इति वदामः. इत्युक्ते धातुः कर्मपदं न स्वीकरोति. अन्यानि क्रियापदानि कर्मपदानि स्वीकुर्वन्ति. अनन्तरम् अधुना वयं, धन्यवादः महोदय, अधुना वयं किं कुर्मः इत्युक्ते अत्र आभागे एकः अभ्यासः अस्ति. कः करोति अधुना? पुनः राजीव् सिङ्ग् महोदय, भवान् करोति वा? प्रथमं सूचनां पठतु.
एवमेव एषः, एषा, एतत्, सः, सा, तत्, भवान्, भवति, एते, एतः शब्दः. सः क्रियापदानाम् अभ्यासं करोतु.
यथा
यथा एषः गच्छति, एषा गच्छति.
भवान् अवगतवान् वा सूचना का इति?
यूसिङ्ग् एषः, एषा, एतत्, and sah sa tat bhavan bhavati using these words and using kriyas create sentences using those kriyas
uttamam tadeva ad ichukte atra अष्टपदानि सन्ति एषः एषा एतत् तत् सः सा भवान् भवति अत्र अष्टपदानि सन्ति एतानि पदानि कर्तृपदानि उपरि दत्तानि वाक्यानि अपि तत्रापि पदद्वयमस्ति सा गच्छति इत्यस्मिन् वाक्ये पदद्वयमस्ति सा इति कर्तृपदं गच्छति इति क्रियापदम् सा इति पदं कर्ता तथा एव अत्रापि एषः एषा एतत् सः सा तत् भवान् भवति एतानि अष्टपदानि कर्तृपदानि इत्युक्ते कर्तृपदेन सह क्रियापदम् अपि उपयुज्य वाक्यं रचयितुं शक्नुमः अहं वदामि भवान् एव करोतु अष्टवाक्यानि भवान् रचयितुं शक्नोति यु केन् रैट् एय्ट् सेण्टेन्सस् हियर् अहं
अहं गच्छामि
नयति पश्यतु महोदय नयति इति पदं ददामि नयति इति पदम् उपयुज्य अष्टवाक्यानि रचयतु
सः सः नयति एषः नयति एषा नयति
उत्तमम्
सा नयति नयति मीन्स् वाट् केरिङ्ग्
केरिङ्ग् नयति इत्युक्ते केरिङ्ग् सा नयति तत्
तत् नयति
उत्तमं तत् नयति
तत् नयति
तत् नयति किमर्थं वदामः चेत् तत् इति पदं नपुंसकलिङ्गे तस्य उपयोगः भवति यानम् इति पदं नपुंसकलिङ्गपदं तत् यानं तत् यानं नयति तत् लोकयानं नयति तथा वदामः परन्तु एतानि पदानि सर्वनामपदानि अपि च कर्तृपदानि तत् नयति इति अपि समीचीनं अनन्तरं करोतु अष्टवाक्यानि रचयितुं शक्नुमः
भवान्
न अत्र महोदय अत्र केवलं लघुवाक्यानि वदतु तत् नयति
तत् नयति भवान् नयति
भवान् नयति
भवति नयति
उत्तमं तथा एव इत्युक्ते कर्तृपदम् उपयुज्य क्रियापदेन सह वाक्यरचनां कुर्मः अधुना उत्तमं महोदय अनन्तरं समीर् महोदय भवान् करोति वा
यस्
हसति इति उपयुज्य अष्टवाक्यानि रचयतु
एषः हसति एषा हसति एतत् हसति सा हसति सः हसति तत् हसति भवान् हसति भवती हसति
उत्तमम् तथा एव अन्यानि क्रियापदानि अपि उपयुज्य वयं वाक्यरचनां कर्तुं शक्नुमः अनन्तरम् अधोभागे तत्र किम् अस्ति इत्युक्ते भवन्तः सर्वे द्वितीयं करपत्रं पश्यन्तु अहम् एकं करपत्रं प्रेषितवती द्वितीयं करपत्रं तत्र एकवचनं इति उपरि दत्तमस्ति प्रथमपुरुषः उत्तमपुरुषः आभागे यः अभ्यासः अस्ति तं सर्वे गृहे कुर्वन्तु, पुनः अभ्यासं कुर्वन्तु, आभागे यः अभ्यासः अस्ति तं कुर्वन्तु गृहे. परन्तु अधुना वयं द्वितीयकरपत्रं प्रति गच्छामः. द्वितीयकरपत्रे किमस्ति अत्र? शायिरवळि भगिनी भवती पश्यति वा द्वितीयकरपत्रं किम्? तत्र किमस्ति, पठति वा?
कर्तृपदानि.
कर्तृपदानि अत्र एकवचने, इत्युक्ते अत्र एषः, एषा, एतत्, सः, सा, तत्, भवान्, भवती, बालकः, बालिका, मित्रम्, एतानि सर्वाणि पदानि अपि एकवचने सन्ति, अपि च प्रथमपुरुषे सन्ति. यदि प्रथमपुरुषे अस्ति चेत् तत्र क्रियापदं किं भवति? एषः पठति. भवती करोतु तथा.
एषः पठति, एषा पठति, एतत् एतत् पठति, एतत् अस्ति.
पठति, केवलं पठति इति पदम् उपयुज्य एव करोतु.
एतत् पठति, सः पठति, सा पठति, तत् पठति, भवान् पठति, भवती पठति, बालकः पठति, बालिका पठति, मित्रं पठति.
उत्तमं. भवती किम् अवगतवती अत्र? What did you understand here?
एषः, एषा, एतत् कर्तृपदानि, पठति क्रियापदं.
क्रियापदम्. उत्तमम्. अत्र प्रथमपुरुषः इत्युक्ते आङ्ग्लभाषायां फस्ट् पर्सन् इति वदामः. परन्तु अत्र अधोभागे, अत्र करपत्रस्य अधोभागे किमस्ति? उत्तमपुरुषः. उत्तमपुरुषस्य कर्तृपदं किम्?
अहम्.
अहम्, अहं पदम् उपयुज्य वाक्यरचनां करोतु.
अहं पठामि.
अहं पठामि इत्युक्ते
भगिनि,
वदतु.
प्रथमपुरुषे इत्युक्ते फस्ट् पर्सन्, फस्ट् पर्सन् अहम्, अहं पदं न भवतु. अस्तु भगिनि, प्रथमपुरुषस्य थर्ड् पर्सन् एषा, एषः इति भवति खलु भगिनि?
उत्तमं, तदेव तदेव. अत्र अत्र अहम् एकं वक्तुमिच्छामि. अत्र शायिरवळि भगिनी किञ्चित् म्यूट् करोतु. अत्र अहम् एकं वक्तुमिच्छामि. आङ्ग्लभाषायां फस्ट् पर्सन्, सेकेण्ड् पर्सन्, थर्ड् पर्सन् इति वदामः. परन्तु संस्कृतभाषायां प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः इति वदामः. किमर्थम् उत्तमपुरुषः? उत्तमपुरुषकर्तृपदम् अहम् इति वदामः. इत्युक्ते संस्कृतभाषायां कर्तृपदम् अनुसृत्य क्रियापदं भवति. कर्तृपदं पुरुषम् अनुसृत्य एव क्रियापदं भवेत्, तथा एव भवति. तदर्थमेव एषः गच्छति इति वदामः, अहं गच्छामि इति वदामः. किमर्थम् उत्तमपुरुषः इति वदामः? अत्र किञ्चित् वदामि. तदेव संस्कृतभाषायाः औन्नत्यम् अपि च सौन्दर्यम्. किञ्चित् अत्र कर्तृपदम् अनुसृत्य क्रियापदं भवति. इत्युक्ते क्रियापदेन सह, क्रियापदस्य सम्बन्धः कर्तृपदेन सह भवति. यदि क्रियापदस्य सम्बन्धः कर्तृपदेन सह भवति, तदा वयं वदामः कर्तरीप्रयोगः, तद्वाक्यं कर्तरीप्रयोगे अस्ति इति वदामः. इत्युक्ते पुनः वदामि, क्रियापदस्य सम्बन्धः कर्तृपदेन सह भवति, तदा कर्तरीप्रयोगे तत् वाक्यम् अस्ति इति वदामः. इत्युक्ते आङ्ग्लभाषायां वदामि, यदि इफ् द वर्ब् आफ् द सेण्टेन्स् इस् कनेक्टेड् टु to the subject of the sentence. इन् आङ्ग्लभाषायाम् आक्टिव् वाय्स् इति वदामः. कर्तरिप्रयोगः इत्युक्ते आक्टिव् वाय्स्. संस्कृतभाषायां कर्मणि प्रयोगः इति अस्ति. तत्र किं भवति? क्रियायाः सम्बन्धः कर्मपदेन सह भवति, न तु कर्तृपदेन सह. अतः कर्मणि प्रयोगः इति वदामः आङ्ग्लभाषायां पासिव् वाय्स्. अधुना वयं कर्तरिप्रयोगस्य विषये वयं वाक्यानि रचयामः कर्तरिप्रयोगे एव. अत्र भाषायां किमर्थम् उत्तमपुरुषः इति वदन्ति. उत्तमपुरुषः इत्युक्ते किमर्थम्? अत्र यः पुरुषः अन्यान् सर्वान् प्रथमं पश्यति अथवा अन्यः प्रथमः इति चिन्तयति अथवा अन्यं प्रथमम् इति चिन्तयित्वा कार्यं करोति, सः उत्तमपुरुषः. दट् मीन्स् सः उत्तमपुरुषः. अत्र संस्कृतभाषायां प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः इति पुरुषत्रयमस्ति. यः अन्यान् सर्वान् प्रथमं पश्यति इत्युक्ते, इफ् ए पर्सन् पुट्स् द अदर् पर्सन् कन्सिडर्स् द अदर् पर्सन् एस् द फस्ट्, ही इस् द बेस्ट् पर्सन् इत्युक्ते सः उत्तमपुरुषः. तदेव भाषायाः औन्नत्यम्. अनन्तरम् अत्र उत्तमपुरुष कर्तृपदं दत्तमस्ति. अत्र उत्तमपुरुषकर्तृपदम् उपयुज्य वाक्यरचनां कुर्मश्चेत् अहं गच्छामि इति भवति. अधुना वसुप्रदा भगिनी, भवती करोति वा? अहं गच्छामि.
अस्तु भगिनि. अहम् अस्मि, अहं पठामि, अहं लिखामि.
तथा एव. अत्र सूचना किम् अस्ति? सूचना का?
भवान् किं करोति इति.
अत्र उदाहरणं दृष्ट्वा तानि क्रियापदानि परिवर्तयतु इति अस्ति.
अहं करपत्रं दृष्टवामि. अहं पश्यामि, अहम् अस्मि, पठामि, लिखामि.
अहं पठामि, परन्तु पुस्तके पठतु.
पुस्तके पुस्तके उदाहरणं गच्छति अस्मि, अहं गच्छामि.
अनन्तरं त्रयोदशपुटे
क्रियापदं नास्ति भगिनि. क्रियापदं किम्?
प्रथममस्ति गच्छति इति पदम्. अत्र पूर्वस्मिन् पुटे यानि क्रियापदानि सन्ति.
अहं गच्छामि, अहम् आगच्छामि, अहं पठामि, अहं लिखामि, अहं क्रीडामि, अहं पिबामि, अहं खादामि, अहं पश्यामि, अहं हसामि, अहं नयामि.
उत्तमं. तदेव इत्युक्ते अत्र क्रियापदं कर्तृपदम् अनुसृत्य तस्य परिवर्तनं भवति. क्रियापदस्य परिवर्तनं कर्तृपदम् अनुसृत्य भवति. किमर्थं तथा? एतानि वाक्यानि कर्तरिप्रयोगे सन्ति. All these sentences are in the active voice. अतः सा गच्छति इति वदामः, परन्तु अहं गच्छामि, सा, एषः, सः, एषा, सा, एतानि पदानि सर्वाणि अपि प्रथमपुरुषे सन्ति कर्तृपदानि, परन्तु अहम् इति पदम् उत्तमपुरुषस्य कर्तृपदम्, अतः अहं हसामि, अहं नयामि, अहं पश्यामि इति वदामः. केवलं शीघ्रं वयं कथां कुर्मः. अत्र तृतीयं करपत्रमस्ति, तृतीयकरपत्रे एका कथा अस्ति, लघुकथा. कः पठति? हस्मुख महोदय, भवान् करोति वा? हस्मुख महोदय.
एकः काकः अस्ति, तदा ग्रीष्मकालः, सः तृषितः भवति, सः जलस्य अन्वेषणं करोति, अत्र पश्यति, तत्र पश्यति, सर्वत्र पश्यति, कुत्रापि जलम् एव नास्ति, सः सर्वत्र जलार्थं भ्रमति. काकः कष्टेन सुदूरं गच्छति, तत्र सः सुदूरं, काकः कष्टेन सुदूरं गच्छति, तत्र सः एकं कटं पश्यति. काकः अतीव सन्तोषः भवति, किन्तु कटे स्वल्पम् एव जलम् अस्ति, सः जलं पातुं न शक्नोति. जलं कथं पिबामि इति चिन्तयति. सः एकम् उपायं चिन्तयति. शिलाखण्डान् आनयति, घटे स्थापयति, पुनः बहुशिलाखण्डान् आनयति, घटे पूरयति. Is that okay? I think that is
right. जल घटे पूरयति, अनन्तरमपि पञ्चवाक्यानि सन्ति.
Oops, I don't have it here. I don't get it. No why.
अत्र अनन्तरम्.
Okay, let me just let me see if I can go down. Yeah, I got it. Yeah. घटे पूरयति, जलम् उपरि आगच्छति, काकस्य आनन्दः भवति, काकः सन्तोषेण जलं पिबति, काकः ततः स्वनिडं गच्छति, सुखेन जीवनं यापयति. काकः चतुरः.
भवान् अवगतवान् वा कथा?
सारि, यस्, ऐ अण्डर्स्टुड् द मीनिङ्ग्. या,
अत्र कानिचन क्रियापदानि सन्ति, भवान् वदति वा क्रियापदानि वदति वा?
All the verbs, should I say? What are the verbs?
Kriyapadam.
Yeah. Asti, bhavati, karoti, pashyati, asti, brahmati, gacchati, pashyati, bhavati, asti, shaknoti, chintayati, chintayati, anayati, sthapayati, आनयति, पूरयति, आगच्छति, भवति, पिबति, गच्छति, यापयति.
उत्तमम्. एतानि सर्वाणि पदानि अपि
क्रियापदानि.
क्रियापदानि. उत्तमं महोदय. अनन्तरं गीता भगिनी, भवती किञ्चित् वदति वा कथायाः विषये? भगिनी, गीता भगिनी, अत्र अत्र अहं पृच्छामि, तृषितः, तृषितः इत्युक्ते? उत्तमम्. इत्युक्ते अत्र भाषायां किं वदामः इत्युक्ते, तस्य काकस्य पिपासा भवति. पिपासा इत्युक्ते पातुम् इच्छा पिपासा तस्य काकस्य जलं पातुम् इच्छा भवति तदेव धरति अनन्तरम् अत्र अत्र अतीव इति पदमस्ति अतीव इत्युक्ते
बहु सन्तोषम्
उत्तमं स्वल्पं स्वल्पम् इति पदमस्ति स्वल्पं जानाति वा
स्वल्पं
स्वल्पम् इत्युक्ते
लघु लघु स्माल् अमौण्ट्
स्माल् अमौण्ट् इत्युक्ते किञ्चित् किञ्चित्
किञ्चित्
इति वदामः किञ्चित् अथवा अल्पम् अथवा ईषत् संस्कृतभाषायाम् ईषत् इत्युक्ते किञ्चित्
किञ्चित्
अनन्तरम् उपायम् उपायम् इति पदं जानाति वा उपायम् इत्युक्ते
युक्तिः युक्तिः
युक्तिः उत्तमं शिलाखण्डः इत्युक्ते
स्टोन्स् देयर्स् अनदर् वर्ड् फर् दट्
शिलाखण्डान् अत्र पश्यतु शिलाखण्डान्
इत्युक्ते बहुवचनं द्वितीयविभक्ति
उत्तमम् अनन्तरम् अत्र स्वनीडं गच्छति
इस् देयर् अनदर् वर्ड् फर् दिस् शिलाखण्ड
शिलाखण्डः तदेव
तदेव
शिलाखण्डः इत्युक्ते स्टोन् पीसेस्
स्टोन् पीसेस्
स्टोन् पीसेस् अनन्तरं स्वनीडं गच्छति काकः ततः स्वनीडं गच्छति स्वनीडम् इत्युक्ते भाषायां नीडम् इत्युक्ते बर्ड्स् नेस्ट् स्वस्य निवासं गच्छति
स्वस्य निवासं
स्वस्य निवासं गच्छति नीडम् इत्युक्ते नेस्ट् अनन्तरं
यापयति इत्युक्ते कः अर्थः
जीवनं करोति जीवनं यापयति लैक् दट् क्रो स्पेण्ड् इट्स् टैम् कथायाः नीतिः का
चतुरः यु केन् रियलि
काकः चतुरः स्मार्ट्
इफ् यु आर् अ क्लेवर् पर्सन्
काकः चतुरः वयं सर्वे जानीमः उत्तमम् अधुना कालातीतः अभवत् विरमाम सर्वेषां धन्यवादः नमस्कारः अग्रिमे वा मङ्गलवासरे मिलामः
धन्यवादः भगिनि
नमस्कारः
धन्यवादः लक्ष्मी
धन्यवादः
धन्यवादः